हरियो तत्सत् चतुर्थोध्याय ज्ञान योग श्री भगवान उवाच इमं विवशते योगं प्रोक्तवान अहमभ्यं विवशान मनवे प्राह मनुरीक्षा कवे ब्रवीत एवं परंपरा प्राप्त इमं राजर्षयो विदु सकाले नेह महता योगो नष्ट परंतप सैवायं मया तेज्य योग प्रोक्त स्वना पुरातन भक्तोऽसि मे सखा चेति रहस्यं चेतदुत्तमम्। अर्जुन उवाच अपरं भवतु जन्म परं जन्म विवशत कथमेतद् विजानीयां तमादौ प्रोक्तवान् इति। श्री भगवान उवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन तानहं वेद सर्वाणि नत्तं वित्थ परन्तप अयोभिषन्नभ्यात्मा भूतानामीश्वरूपि सन् प्रकृतिं स्वामवधिष्ठाय सम्भवामि आत्ममायया। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानधर्मस्य तदात्मानं श्रियान्महं परित्राणाय साधूनां विनाशाय च दुष्कृतान् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे जन्मकर्म च मे दिव्यम् एवं जो वेत्ति तत्ततः तत्तादेहं पुनर्जन्म नैति मामेति शोर्जुन वीतरागभयक्रोधा मन्मया मामुपाश्रिता बहवो ज्ञानतपसा पूजा मद्भावमागता ये यथावं प्रपद्यन्ते तांस्तथैव भजाम्यहं मम वर्तमानुवर्तन्ते मनुष्यापास सर्वथा कांखंत कर्मणां सिद्धि यजन्त इह देवताः क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा। चातुर्वर्ण्यं मया सृष्टं गुणकर्म विभागः तस्य कर्तारमभिमां विद्धकर्तारमभयं न मां कर्माणि लिप्यन्ति न मे कर्म फले स्पृहा इति मां जो भी जानाति कर्म भीर्न सबद्धते एवं दत्ता कृतं कर्म पुत्पैरपि मुमुक्षुभि कुरु कर्मैव तस्मात् त्वां पुत्पै पूर्वतरं कृतं। किं कर्म किं अकर्मेति कवयुपत्रमोहिता तत्ते कर्म प्रवक्ष्यामि यज्ञत्वामक्षरि शुभात् कर्मणोच्छपि बुद्धव्यं बद्धव्यं च विकर्मणः अकर्मणश्च बुद्धव्यं गहना कर्मणो गतिः। कर्मण्यकर्मजः पश्येत् अकर्मणि च कर्मजः स बुद्धिमान् मनुष्येषु स युक्तः कृष्णकर्मकृत् यस्य सर्वे समारम्भा कामसङ्कल्पवर्जिताः ज्ञानाग्निदग्धकर्माणं तमाहु पण्डितं बुधा तक्ता कर्मफलासङ्गं नित्यतृप्तो निराश्रयः कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति स। निराशीर्यतचित्तात्मा तक्तसर्वपरिग्रहः शारीरं केवलं कर्म कुर्वन्नाप्नोति किलमिषं यदृच्छालाभसन्तुष्टो दण्डातीतो विमत्सरः समासिद्धा असिद्धौ च कृत्तापि न निबध्यते। गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञायाचरतः कर्म समग्रं प्रविलीयते ब्रह्मात्मनं ब्रह्महवीर्ब्रह्मागुलौ ब्रह्मणाहुतं ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना। दैवमेवापरे यज्ञं योगिनोपर्युपासते ब्रह्मज्ञावापरे यज्ञं यज्ञेनैवोपजूहति स श्रोत्रादीनिन्द्रियान्यान्ये संयमाग्निषु जुहोति शब्दादीन विषयानन्न इन्द्रियाग्निषु जुहोति सर्वादिन्द्रियकर्माणि प्राणकर्माणि चापरे आत्मसंयमयोगाग्नौ जुहति ज्ञानदीपिते द्रव्यज्ञास्तपोज्ञा योगयज्ञास्तथा परि श्रद्धाय ज्ञानयज्ञाश्च जतया संसितव्रता अपाने जुहति प्राणं प्राणिपानं तथा परि प्राणपानगतिरुद्धा प्राणायम परायणा अपरे नियता हारा प्राणान प्राणेषु जुहति सर्वेप्येते यज्ञविदो यज्ञखैरकल्मषा यज्ञशिष्टामृतभुजो यान्ति ब्रह्मसनातनं नायं लोकन्त्यज्ञस्य कुतो नः कृशोत्तमा एवं बहुविधा यज्ञा वितता ब्राह्मणो मुखे कर्म यान विद्धितान सर्वान एवं ज्ञात्वा विमोक्षसे श्रेयान द्रव्यमयाद यज्ञाद ज्ञान यज्ञ परंतप सर्वं कर्मखिलं पार्थ ज्ञाने परिसमात्पते तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः यज्ञात्वा न पुनर्मुहमेवं यास्यसि पाण्डव येन भूतान्न शेषानि द्रक्ष्यस्यात्मन्नथो मयि अभिचेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः सर्वं ज्ञानप्लवेनैव वृजिरं संतरिष्यसि यथैधांसि समीधोऽग्निर्भस्मात् कुरुतेऽर्जुन ज्ञानाग्निसर्वकर्माणि भस्मात् कुरुते तथा न हि ज्ञानेन सदृशं पवित्रमिव विद्यते तत्स्वयं योगसंसिद्ध कालेनात्मनि विन्दति श्रद्धावान लभते ज्ञानं तत्परसंजितेन्द्रिय ज्ञानं लब्धा परां शान्तिमत्चिरेनाधिगच्छति अज्ञश्चाश्रद्धदानश्च संशयात्मा विनश्यति नायं लोकोऽस्ति न परो न सुखं संशयात्मनः योगसंनष्टकर्माणं ज्ञान संच्छिन्न संशयम् आत्मवन्तं न कर्माणि निवदन्ति धनञ्जय तस्माद् ज्ञान सम्भूत हृत्स्थं ज्ञानाशिनात्मनः चित्तैनं संशयं योगं मातिष्ठोत्तिष्ठ भारत इति श्रीमहाभारत सद्भावसंहितायां वैयासिक्खं भीष्मपर्मणि श्रीमद्भगवद्गीतासुपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानयोगनामचतुर्थोऽध्याय पञ्चाग्रचक्रवारिन्दुभ्यैव पैताडं पावनेभ्यो वैष्णवेभ्यो नमो नमः।